इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी रियो डी जेनेरियो नगरे 17 ब्रिक्स शिखर सम्मेलने भागग्रहणानन्तरं स्वीय ब्राजील यात्रायाः द्वितीय चरणाय ब्राजीलिया नगरं सम्प्राप्तवान्। सः अद्य ब्राजीलस्य राष्ट्रपतिना लूला दा सिल्वा इत्यमुना सह द्विपक्षीय वार्तां करिष्यति। अवधेयास्पदमिदं यत् तौ उभयोः देशयोः मध्ये परस्पर रणनीतिक सहभागितां दृढीकर्तुं चर्चां करिष्यतः। वार्तायां व्यापार रक्षा ऊर्जा अन्तरिक्ष प्रौद्योगिकी कृषि स्वास्थ्यादि विषयान् समेत्य जनेषु परस्पर सम्पर्क समेधनार्थमपि चर्चा भविष्यति। सोशल मीडिया सन्देशे प्रधानमन्त्रिणा मोदिना प्रोक्तं यत् तस्य ब्राजील यात्रायाः रियो चरणं सार्थकतया सुसम्पन्नम्। श्रीमोदिना प्रोक्तं यत् ब्रिक्स शिखर सम्मेलने तेन व्यापक विचार विमर्शः विहितः। तेन अस्य मञ्चस्य इतोपि प्रभाविकरणाय ब्राजीलस्य राष्ट्रपतेः प्रशंसा कृता। तेनोदीरितं यत् विश्वनेतृभिः सह तस्य द्विपक्षीयोपवेशनं विभिन्न देशैः सह भारतस्य मैत्रीं समेधिष्यते। प्रधानमन्त्रिणा नरेन्द्र मोदिना रियो डी जेनेरियो नगरे ब्रिक्स शिखर सम्मेलनस्य द्वितीय दिने आयोजिते सत्रे भागं गृहीतम्। प्रधानमन्त्रिणा तत्र विज्ञापितं यत् भारतीयाः वंश परम्परया एव प्रकृतौ श्रद्धां स्थापयन्ति। श्रीमोदिना प्रोक्तं यत् भारतस्य कृते जलवायुन्यायः विकल्पः नास्ति, अपितु नैतिक कर्तव्यः वर्तते। तेन सबलं प्रोक्तं यत् भारतस्य अध्यक्षतायां ब्रिक्स संघस्य दक्षिण दक्षिण सहकारस्य समेधनार्थं पुनः परिभाषा परिकल्प्यते। प्रधानमन्त्रिणा पर्यावरण सम्बद्ध कार्याचरणाय भारतस्य दृढ प्रतिबद्धता व्यक्तीकृता। प्रधानमन्त्रिणा महत्वपूर्ण खनिज प्रविधि क्षेत्रयोः अधिक सहयोगस्यापि आग्रहो कृतः। शिखर सम्मेलनावधौ प्रधानमन्त्रिणा बोलीविया देशस्य राष्ट्रपतिना लुइस एर्से कैटाकोरा सहैव उरुग्वे देशस्य राष्ट्रपतिना यामांडू ओर्सियन इत्येताभ्यां सह द्विपक्षीयोपवेशनम् अपि समाचरितम्। ब्रिक्स संघेन सामाजिक निर्धारित रोगाणाम् उन्मूलनाय नवीन सहकारस्य आरम्भोऽपि करिष्यते। पोत परिवहन जलमार्ग मन्त्री सर्बानन्द सोनोवाल पूर्वोत्तर क्षेत्रे जलमार्ग सामुद्रिक क्षेत्रयोः संवर्धनाय 5,000 कोटि रूप्यकाणां योजनायाः घोषणां कृतवान्। यः असमस्य गुवाहाटी नगरे पत्रकार सम्मेलने सः उक्तवान् यत् अस्यां योजनायां पोताश्रय विस्तारः सहैव सामुद्रिक उद्योगाय च 15,000 युवभ्यः प्रशिक्षणं विधास्यते। रेलमन्त्रिणा अश्विनी वैष्णवेन पटना दिल्लीं दरभंगा लखनऊ मालदा लखनऊ एवं सहरसा अमृतसरं समेत्य चतुर्णां नूतन अमृत भारत रेलयानानां घोषणा कृता। सीमांचलाय अपि जोगबनी ईरोड रेलयानस्य घोषणा समभवत्। तेनोदीरितं यत् 650,000,000 कोटि रूप्यकाणां 53,000 किलोमीटरमितं भागलपुर जमालपुर तृतीय रेलपट्टिकायै शीघ्रमेव सहमति सम्प्राप्स्यते। आगामी जनगणनावधौ स्वगणनायाः कृते एकं वेब पोर्टल तन्त्रम् उपलप्स्यते। एतत् पोर्टल तन्त्रं 27,000+ जनगणनायै उभयोः चरणयोः कृते उपलब्धं भविष्यति। भारतस्य महापञ्जीयक जनगणना आयुक्तेन सोशल मीडिया सन्देशे प्रोक्तं यत् एषा देशस्य प्रथमा डिजिटल जनगणना भविष्यति। डेटा संकलनं मोबाइल एप तन्त्रांशानां माध्यमेन आंग्लभाषायां हिन्दीभाषायां क्षेत्रीय भाषासु च करिष्यते। प्रगणकाः पर्यवेक्षकाश्च डेटा संग्रहणाय स्वकीयानां मोबाइल यन्त्राणाम् उपयोगं करिष्यन्ति। भारतस्य यूकी भांबरी एवं तस्य अमेरिकी सहभागी रॉबर्ट गैलोवो इत्येतौ लंदन नगरे विम्बल्डन टेनिस प्रतिस्पर्धातः बहिर्भूतौ। इति वार्ताः।